अस्य श्रीरुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः अनुष्ठुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः ॐ दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः ॐ चातुर्मास्यात्मने मध्यमाभ्याम् नमः ॐ निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ॐ ज्योतिष्ठोमात्मने कनिष्ठिकाभ्याम् नमः ॐ सर्वक्रत्वात्मने करतलकरपृष्ठाभ्याम् नमः ॐ अग्निहोत्रात्मने हृदयाय नमः ॐ दर्शपूर्णमासात्मने शिरसे स्वाहा ॐ चातुर्मास्यात्मने शिखायै वषट् ॐ निरूढपशुबन्धात्मने कवचाय हुम् ॐ ज्योतिष्ठोमात्मने नेत्रत्रयाय वौषट् ॐ सर्वक्रत्वात्मने अस्त्राय भट् ॐ भूर्भुवस्तु वरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तरान्तभुवनब्रह्माण्डमाविस्फुरत् ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः अस्तोकापुतमेकमीशमनिशम् रुद्रानुवाकाम् जपेत् ध्यायेदीप्सितसिद्धये ध्रुवपदम् विप्रोऽभिषिञ्चेच्छिवम् ब्रह्माण्डम् व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः कण्ठे कालाक्कपद्दात् कलितशशिकलाश्चण्डकोदण्डहस्ताः त्र्यक्षारुद्राक्षमाला सुललितवपुषस्याम्भवा मूर्तिभेदाः रुद्राश्रीरुद्रसूक्त प्रकटित विभवा नः प्रयच्छन्तु सौख्यम् ॐ शं च मे मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे रामयश्च मे जीवादुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे शूषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ नमो भगवते रुद्राय नमस्ते रुद्रमन्यवभूतो दिशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः या दिशुः शिवतमा शिवम् बभूवते धनुः शिवाशरव्या या तवतया नो रुद्रमुडया या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवासन्तमया गिरिशन्ताभिचाकसीः यामिषुम् गिरिशन्तहस्तेऽपि भर्जस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत् अध्यगोचदधि भक्ता प्रथमो दैव्योऽभिषक् अहीरिश्च सर्वासाम् जम्भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुस्सु मङ्गलः ये चेमागुं रुद्र अभितो दिक्षु श्रिता सहस्रशो वैशागुं हेणयीमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उदैनं गोपा अदृशन्नदृशन्नुदहार्यः उतैनं विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अघोये अस्य सत्त्वानोऽहं तेभ्यो गरं नमः प्रमुञ्च धन्वनस्त्वमुभयो रात्रियोद्याम् याश्च देहस्तविषवः पराता भगवो वप अवतत्यथनुस्त्वगुं सहस्राक्षसतेषु ते निशीर्य शल्यानाम् मुखा शिवो न सुमना भव विद्यम् धनुः कपद्दिनो विशल्यो बाणवागुम्भुता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेरिम्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाटकाय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिदे धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तराय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् जपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय त्रिषीमते पथीनाम् पतये नमो नमो बभ्रुजाय विव्याहिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगत् ताम् पतये नमो नमो रुद्रायातकामिने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्तृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते भक्तीनाम् पतये नमो नमः कृत्स्नवीता यथा पते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आम् व्याधिनीनाम् पतये नमो नमः ककुभा